नमस्कारेभ्यः अद्य प्रौढमनोरमायाः संज्ञाप्रकरणे पञ्चमः पाठः सेप्टेम्बर् मासस्य एकविंशः दिनाङ्कः येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ध्यायन् ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम् संज्ञाप्रकरणे अधीतस्य भागस्य किञ्चिदिव पुनरावर्तनं कुर्मः. I've seen, I think most of you have sent in your assignments, except the last one was the GMN. I couldn't see it just now, but I've seen the others. And I'm very happy that all of you have made an effort at putting it down in writing. I mean, even that effort will go a lot way in the Shastra. Okay? I mean, that effort to try to understand and especially to put it down in writing. Okay, so when you write it down, that it becomes clearer. Whatever you have understood becomes much more clear. And it is perfectly fine even if you don't understand it 100% the first time around, as I kept telling. Shastra needs repetition, needs avruti to actually sink in. Okay? But for a first attempt, it's actually a great attempt by all of you. The first time that I learnt all this, I'm sure I didn't understand so much. Okay? So we'll just have a quick recap. Since all of you, I am now convinced that all of you have really understood it. We'll have a quick recap of what we did. So, Praudhavanauramayam, Sanya Prakarane, Adav, Hakarasya, Virupadeshasya, Kim Prayojanam, Iti Drishtam. Keshuchit Pratyahareshu, Prathama Hakarasya Grahana Apekshate, Kutra Chitcha, Dvitiya Hakarasya, Yatha Prathama Hakarasya, At Ash Hash In, Ittyeteshu, तेषाम् उदाहरणान्यपि अधीतानि तथा द्वितीयहकारस्य वल् रल् छल् शल् इति चतुर्षु प्रत्याहारेषु ग्रहणम् अपेक्ष्यते. तदर्थम् उभयत्रापि हकारः उपदेष्टव्यः. द्वितीयं प्रकरणम् आसीत् हलन्त्यम् इत्यत्र सम्पूर्णसूत्रावृत्तिः इति सिद्धान्तः, दीक्षितानां सिद्धान्तः हलन्त्यम् इति सूत्रस्य आवृत्तिः. तत्र किं मूलं हलन्त्यम् आर्यदन्तेन सहेत इत्येतयोः अन्योन्याश्रयदोषनिवारणार्थम् उपायः अन्विष्यते. कः उपायः? आदौ लकारस्य इत्संज्ञा, ततः तेन लकारेण हल् प्रत्याहारस्य सिद्धिः, ततश्च हल् प्रत्याहारे सिद्धे हल् इत्यनेन व्यञ्जनम् इत्यर्थे अन्त्यं हल् इति भवति इति सिद्धान्तितः अर्थः. स एव अर्थः सर्वैः शास्त्रकारैः इष्यते. किन्तु लकारस्य इत्संज्ञा कथम् इति विषये विवदन्ते शास्त्रकाराः. तत्रैव मतभेदः दृश्यते. एकः पक्षः हल् पदस्य आवृत्तिः, हल् हल् अन्त्यं हल् पदस्य आवृत्तिः क्रियते. तत्र प्रथमहल् पदस्य हस्य ल् अर्थात् हकारसमीपः लकारः इत्संज्ञकः भवति. अनेन लकारस्य इत्संज्ञा सिद्ध्यति. ततः हल् प्रत्याहारसिद्धिः, ततः हलन्त्यम् इति पुनः द्वितीयहल् पदस्य व्यञ्जनम् इत्यर्थः इति एकः पक्षः. द्वितीयः पक्षः हल् च ल् च इति समाहारद्वन्द्वः क्रियते. हल् इत् भवति, तथैव ल् नाम लकारः इत्संज्ञः भवति इति साक्षात् लकारस्य इत्संज्ञा उपदिश्यते. द्वितीयलकारस्य च संयोगान्तस्य लोपः इत्यनेन लोपः. अतः हलन्त्यम् इति सूत्रे एक एव लकारः श्रूयते, किन्तु द्वितीयोऽपि लकारः अस्ति इति द्वितीयः पक्षः. तृतीयः पक्षस्तु हलन्त्यम् इति सूत्रमेव आवर्त्यते. हल् इति सूत्रे अन्त्यमित् स्यात् इति प्रथमस्य अर्थः. हल् इति माहेश्वरसूत्रे, चतुर्दशमाहेश्वरसूत्रे अन्त्यं नाम लकारः इत्सम्यकः भवति इत्यर्थः. द्वितीयसूत्रस्य तु हल् उपदेशे अन्त्यं हल् नाम अन्त्यं व्यञ्जनम् इति भवति इत्यर्थः इति त्रयः पक्षाः सम्भवन्ति लकारस्य इत्संज्ञा साधनार्थम्. तत्र दीक्षिताः पूर्वयोः पक्षयोः दोषप्रदर्शनं कुर्वन्ति. प्रथमपक्षे हल् पदस्य आवृत्तौ समासे क्लेशः. हस्य ल् इति समासः क्रियते, हसनीपः लकारः इति अर्थश्च उच्यते, किन्तु षष्ठीसमासेन सामीप्यम् अर्थः न प्रतीयते. हसनीपः लकारः इत्यर्थः यथा ब्राह्मणस्य कम्बलः इत्युक्ते ब्राह्मणस्वामिकः कम्बलः, न तु ब्राह्मणसमीपवर्ती कम्बलः. तथैव चित्राः गावः यस्य इत्युक्ते यस्य स्वामिनः चित्राः गावः सन्ति, यस्य गोपालस्य सः गोपालः इत्येव अर्थः, न तु यस्य वृक्षस्य समीपे चित्राः गावः तिष्ठन्ति सः वृक्षः इत्यर्थः न प्रतीयते. अतः सामीप्यार्थः षष्ठ्या न प्रतीयते, तेन समासेनापि न प्रतीयते. भाष्यमपि भाष्यप्रामाण्यमपि प्रदर्शितं दीक्षितैः न ह्यनन्तरादिषु बहुव्रीहिमत्वीयो भवतः इत्यादि. अतः प्रथमः पक्षः न साधुः. द्वितीयपक्षे अपि द्वितीयलकारस्य लोपः दुर्लभः. हल् च लिल् च इत्युक्ते संयोगान्तस्य लोपः इति न प्रवर्तते. यः प्रतिषेधो वाच्यः इति वार्तिकबलेन अथवा तद्वार्तिकं प्रत्याख्याय झलोझलि इत्यतः झलः इति अपकर्षः क्रियते भाष्यकारेण, संयोगान्तस्य झलः एव लोपः विधीयते. लकारस्तु न झल्, अतः लोपो न भवति. द्वितीयस्य हल लकारस्य श्रवणं स्यात् इति एकः पक्षः. हल् पदार्थस्य ज्ञानाभावे हल् च लि च इति समाहारद्वन्द्वः क्रियते. सः विवक्षायां द्वन्द्वः इति सिद्धान्तः. And there are two particles and there is sahavivaksha. There is samuchaya, that is the anvaya of both of those in a single kriya. That is when we have dvandva. Now we have two particles here. There is hal and there is lu. But we don't know what is hal. Right? Hal iti padarthasya jnanam yadi nasti. Tarhi katham sahavivaksha kartum shakyate. When you don't know one of the participants, you cannot have sahavivaksha. तर्हि द्वन्द्वः एव न भवति. द्वन्द्वसमाहारद्वन्द्वः एव न शक्यते इति द्वितीयपक्षेऽपि असन्तुष्टिः भट्टोजिदीक्षितस्य. अत एव सूत्रावृत्तिपक्षः सम्पूर्णसूत्रम् आवर्त्यते इति सिद्धान्तः दीक्षितैः प्रतिष्ठापितः. इदानीम् आवृत्ते हलन्त्यम् इति सूत्रे द्विवारं हलन्त्यम् इति सूत्रमस्ति. आदौ हल् इति सूत्रे अन्त्यमित् स्यात्, द्विवारं तु उपदेशे अन्त्यं हल् इति स्यात्. तत्र क्लेशः नास्ति. अन्त्यं हल् इति भवति इति शब्दः, प्रत्येकशब्दः भिन्नशब्दः. हलन्त्यम् इति प्रथमतः यदा सूत्रम् उच्यते, हल् इति सूत्रे अन्त्यम् इति स्यात्, तत्र कस्समासः इति प्रश्नः. हलन्त्यम् इति भवति कस्समासः. हलि अन्त्यं हलन्त्यं, हल् इति सूत्रे इति सप्तम्यर्थे सप्तमी तत्पुरुषः कथं सप्तमी, सप्तमी शौण्डैः इति सूत्रमस्ति. तत्र योगविभागः क्रियते. सप्तमी सप्तम्यन्तं सुबन्तेन समस्यते इति योगविभागेन साधयितुं शक्यते. किन्तु सः योगविभागः भाष्यानुमतः न. अतः अन्यः उपायः खलि अन्त्यम् इत्येव केवलसमासः इति उच्यते. अर्थात् सुबन्तं सुबन्तेन समस्यते. सः सुपा इति सूत्रमस्ति. तत्र केवलसमासः क्वचित् अङ्गीक्रियते. अगति कगतिः इत्येव. सो यत्र अन्या कापि गतिर्नास्ति तत्र अगतिकगत्या सः सुपा इति अङ्गीक्रियते. किन्तु सापि अगतिकगतिः इत्येव तत्र असन्तोषः. सो दट् इस् केन् यूस् ओन्लि एट् द फैनल् रिसार्ट् वेन् इट् केन् नाट् बि जस्टिफैड् बै एनी अदर् मीन्स्. अत्र तु अस्ति अन्यः उपायः. हलः अन्त्यम्, हल् इति सूत्रस्य अन्त्यम् इत्यर्थः. षष्ठी तत्पुरुषः षष्ठी इति सूत्रेण सिद्ध्यति. तत्र कोऽपि क्लेशः नास्ति. सो फैनलि वि सी दट् इट् इस् षष्ठी तत्पुरुष विच् इस् प्रिफर्ड्. सो दट् वास् रिगार्डिङ्ग् हलन्त्यम्. ऐ अस्यूम् यू आल् अण्डर्स्टुड्. इफ् यू हेव् एनी स्पेसिफिक् क्वश्चन्स् यू केन् आस्क् ईवन् नौ. अण्ड् If not, we will move ahead with the next prakarana, the next part of the Prautama Manorama, which concerns the sutra Adiyantyena Saheta. Halantyam iti prathamavaram patitva, tataha lakarasya itsamya siddhau, hal pratyaharasya sadhanartham, Adiyantyena Saheta iti sutram svikriyate kaumudyam. कः अर्थः? अन्त्येन इता सहितः आदिः मध्यगानां स्वस्य च संज्ञा स्यात् इति सूत्रार्थः लिखितः. अन्त्येन इता सहितः आदिः, आदिः कश्चन आदिमवर्णः, अन्त्येन इत्सम्यकेन वर्णेन सहितः संज्ञा भवति, अर्थात् अकारः अस्ति आदिः, अन्त्येन इत्सम्यकेन नाम नकारेण सहितः, मध्यगानाम् अ इ उ न, अ अकारणकारयोः मध्ये ये सन्ति इकार उकारौ तयोः, स्वस्य च, स्वस्य इत्यनेन किं गृह्यते, वाट् इस् इट् दट् वि हाव् बै स्वस्य, स्वस्य इत्यनेन किं गृह्यते सूत्रे. आदिमः वर्णः सत्यं, स्वस्य इत्यनेन आदेश्च, अन्त्येन इता सहितः आदिः, आदिः मध्यगानां स्वस्य च, स्वस्य नाम आदेश्च संज्ञा स्यात्. सो द लेटर्स् विच् फाल् इन् बिट्वीन् एण्ड् द आदिमवर्ण इट्सेल्फ् द अकार इट्सेल्फ् सो इकार उकारयोः अकारस्य च संज्ञा भवति, तेन अण् इत्युक्ते अ इ उ इत्यर्थः सिद्ध्यति. अत्र कश्चन विचारः प्रस्तूयते दीक्षितैः. मध्यगानामिति कथं तादृशः अर्थः लभ्यः? आद्यन्ताभ्याम् अवयवाभ्याम् अवयवीसमुदायः आक्षिप्यते. अन्त्येन इता सहितः आदिः इत्येव उच्यते सूत्रे. किम् इति नोक्तम्, अन्त्येन इता सहितः आदिः, किं किमपि नोक्तम्, हि हेस् नाट् सेड्. सो आदि अलाङ्ग् वित् अन्त्या, वाट् हेस् नाट् बीन् टोल्ड्. सो वि हि सेड् आक्षिप्यते. आद्यन्ताभ्याम् अवयवाभ्याम् अवयवीसमुदायः आक्षिप्यते. आदिः अन्त्यम् इति अवयववाचकौ शब्दौ. सो दे आर् वर्ड्स् विच् इण्डिकेट् द पार्ट् आफ् संथिङ्ग्. आदि इस् द बिगिनिङ्ग् आफ् संथिङ्ग्, अन्त्या इस् द एण्ड् आफ् संथिङ्ग्. सो एस् सून् एस् यु हाव् द टर्म् आदि आर् अन्त्या, देर् इस् एन् आटोमेटिक् क्वश्चन् आफ् वाट्, कस्य आदिः कस्य अन्त्यम् इति अपेक्षा वर्तते. अवयवस्य अवयविनं प्रति नित्यसापेक्षत्वं, तदेव सापेक्षत्वम् अपेक्षा वर्तते. कस्य आदिः कस्य अन्त्यः इति सर्वदा अवयवः इत्युक्ते कः अवयवी, हस्तः ते कस्य हस्तः. सो देर् इस् आल्वेस् आर्गन्स् एण्ड् एन् आर्गानिसम्. सो आर्गन्स् केन् नाट् एक्सिस्ट् इण्डिपेण्डेण्ट्लि विथौट् द आर्गानिसम्. सो एस् सून् एस् यु हाव् एन् आर्गन्, सो देर् इस् अ नित्यसापेक्ष, अ कम्पल्सरी क्वश्चन् एस् टु वाट् इस् to what does it belong, what is it a part of. So adihi ityukte kasya, antyam ityukte kasya iti apeksha vartate. Kaha avayavi atra iti prashne, yasya imau adihi antyascha. So that at the beginning of which is this adi, whatever you're taking, akara, and at the end of which is the nakara. Yasya adav akaraha antyecha nakaraha asti, सः समुदायः अवयवी इत्यर्थः आक्षिप्यते. आद्यन्ताभ्याम् अवयवाभ्याम् अवयवी समुदायः आक्षिप्यते. सो अवयवी कश्चन समुदायः अस्ति, तस्य समुदायस्य आदौ अकारः अन्ते च नकारः अस्ति, सः समुदायः आक्षिप्यते. सो बै कामन् सेन्स् यु नो दट् इट् रेफर्स् टु द ग्रूप् एट् द बिगिनिङ्ग् आफ् विच् यु हाव् युर् आदि, वट् एवर् द लेटर्, एण्ड् एट् द एण्ड् आफ् विच् यु हाव् द अन्त्य. ततश्च किं जातम्? अण् इत्युक्ते अ इ उ न, अयं समुदायः अ इ उ न इति, तत्र आदौ अकारः अस्ति आदिः, अन्ते च इत्सम्यकः नकारः अस्ति, अतः अण् इत्युक्ते अ इ उन् इति समुदायस्य संज्ञा. सो फार् वि गाट् फस्ट् वे वेर् वी केन् सेफ्लि अस्यूम् दट् अण् इस् अ संज्ञा फार् द ग्रूप् आफ् लेटर्स् अ इ उ न. आद्यन्ताभ्याम् अवयवाभ्याम् अवयवी समुदायः आक्षिप्यते. तस्य च युगपल्लक्ष्यप्रयोगाभावात् त ತದವಯವೇಶು ಅವತರಂತಿ ಸಂಜ್ಞಾ ಮಧ್ಯಗೇಶು ವಿಶ್ರಾಮ್ಯತಿ ನದು ಆದ್ಯಂತಯೋ ಸಂಜ್ಞಾಸ್ವರೂಪಾಂತರ್ಭಾವೇಣ ತಯೋಃ ಪಾರಾರ್ಥ ನಿರ್ಣಯಾದ್ ಇತಿ ಭಾವಃ. ಕ್ಯೂಚ್ಯತೆ ತಸ್ಯ ಚ ಯುಗಪಲ್ಲಕ್ಷ್ಯೇ ಪ್ರಯೋಗ ಭಾವಾತ್. ಕಸ್ಯ ಸಂಜ್ಞಾಯಃ, ಉದಾಹರಣಾರ್ಥಂ ಇದಾನೀಂ ಅಣ್ಣ ಇತಿ ಸಂಜ್ಞಾ ಅಸ್ತಿ, ಕುತ್ರ ಉಪಯೋಗಃ, ಕ್ವಚಿತ್ ವಿಧಿಸೂತ್ರೇ ಉಪಯೋಗಃ. ಉದಾಹರಣಾರ್ಥಂ ಘಲೋಪೆ ಪೂರ್ವಸ್ಯ ದೀರ್ಘೋಣಃ ಇತ್ಯಸ್ತಿ, ಬಹೂನಿ ಸೂತ್ರಾಣಿ ಸಂತಿ ಅಣ್ಣಿತಿ ಪ್ರತ್ಯಾಹಾರಂ ಉಪಯುಜ್ಯ ಇದಮೇಕಂ ಸೂತ್ರಂ ಪೂರ್ವಂ ಅಧೀತಂ ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯಂ. ಢ್ರಲೋಪೆ ಪೂರ್ವಸ್ಯ ದೀರ್ಘೋಣಃ, ಢ್ರಲೋಪೆ ಢಕಾರಸ್ಯ ರೇಫಸ್ಯ ಚ ಲೋಪೆ, ಪೂರ್ವಸ್ಯ ಅಣಃ ದೀರ್ಘಃ ತತ್ ಪೂರ್ವಸ್ಥಿತಸ್ಯ ಅಣ್ ವರ್ಣಸ್ಯ ದೀರ್ಘಃ ಇತ್ಯುಚ್ಯತೆ. ಢೋಢೆ ಲೋಪಃ ರೋರಿ ಇತ್ಯಸ್ತಿ, ಢಕಾರಸ್ಯ ಢಕಾರೇ ಪರೇ ಲೋಪಃ, ರೇಫಸ್ಯ ರೇಫೇ ಪರೇ ಲೋಪಃ ರೋರಿ ಇತ್ಯಸ್ತಿ. ಲೋಪೆ ಕೃತೆ ಪೂರ್ವಸ್ಯ ಅಣಃ ದೀರ್ಘಃ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಇದಾನೀಂ ಅಣ್ ಇತ್ಯುಕ್ತೆ ಕಿಂ? ಅ ಇ ಊಣ್ ಇತಿ ಸಮುದಾಯಃ. ಸೊ ದ ಗ್ರೂಪ್ ಆಫ್ ಲೆಟರ್ಸ್ ಟುಗೆದರ್ ಇಸ್ ಕಾಲ್ಡ್ ಅಣ್ ಸೋ ಫಾರ್ ಫ್ರಮ್ ವಾಟ್ ವಿ ಗಾಟ್ ದೇರ್. ಆದ್ಯಂತಾಭ್ಯಾಂ ಅವಯವಾಭ್ಯಾಂ ಅವಯವೀ ಸಮುದಾಯಃ ಆಕ್ಷಿಪ್ಯತೆ ಇತ್ಯುಕ್ತೆ ಅಣ್ ಇತಿ ಅ ಇ ಊಣ್ ಇತಿ ಚತುರ್ಣಾಂ ವರ್ಣಾನಾಂ ಸಮುದಾಯಸ್ಯ ಸಂಜ್ಞಾ ಇತಿ ಆಪತಿತಂ. ತಥಾ ಸತಿ ಕಿಂ ಭವತಿ, ಯತ್ರ ಅಯಂ ಸಮುದಾಯಃ ಅಸ್ತಿ ಢೋಢೆ ಲೋಪಃ ಢಕಾರಸ್ಯ ರೇಫಸ್ಯ ವಾ ಲೋಪೇ ಕೃತೆ, ಪೂರ್ವತ್ರ ಯದಿ ಅ ಇ ಊಣ್ ಇತಿ ಸಮುದಾಯಃ ಅಸ್ತಿ ತರ್ಹಿ ತಸ್ಯ ಸಮುದಾಯಸ್ಯ ದೀರ್ಘಃ. ಸೊ ಇಫ್ ದ ಫುಲ್ ಗ್ರೂಪ್ ಆಫ್ ಲೆಟರ್ಸ್ ಅ ಇ ಊಣ್ ಇನ್ ದಟ್ ಆರ್ಡರ್ ಆರ್ ಪ್ರೆಸೆಂಟ್ ಸಮ್ವೇರ್ ದೆನ್ ವಿ ಕ್ಯಾನ್ ಇಲಾಂಗೇಟ್, ಸಹ ಅರ್ಥ ಆಪತತಿ. ಕಿಂತು ಪ್ರಯೋಗೇ ಕುತ್ರಾಪಿ ತಾದೃಶಂ ಉದಾಹರಣಂ ನ ಲಭ್ಯತೆ ಯತ್ರ ಅ ಇ ಊಣ್ ಇತಿ ಸಮುದಾಯಃ ಯುಗಪದ್ ಅಸ್ತಿ. ಸೊ ಯು ಡೋಂಟ್ ಫೈಂಡ್ ಎನಿ ಪ್ರಯೋಗ ವೇರ್ ಯು ಹ್ಯಾವ್ ದೀಸ್ ಫೋರ್ ಲೆಟರ್ಸ್ ಅಕರಿಂಗ್ ಟುಗೆದರ್ ಇನ್ ಅ ಪ್ಲೇಸ್ ಅಂಡ್ ಯು ಕ್ಯಾನ್ ಅಪ್ಲೈ ಸೂತ್ರ ರೈಟ್. ಸೊ ದೆನ್ ವಾಟ್ ಇಸ್ ದ ಕೇಸ್? ಸೂತ್ರ ಅಣ್ಗ್ರಹಣ ವ್ಯರ್ಥಂ ಸ್ಯಾತ್. ತಥಾ ಸತಿ ಕುತ್ರಾಪಿ ಅಣಃ ದೀರ್ಘಃ ಪ್ರವರ್ತಯಿತುಂ ನ ಶಕ್ಯತೆ. ಸೊ ವಿ ಕ್ಯಾನ್ ನೆವರ್ ಅಪ್ಲೈ ದ ಸೂತ್ರ ಅಂಡ್ ನಾಟ್ ಜಸ್ಟ್ ದಿಸ್ ಸೂತ್ರ, ಎನಿ ಸೂತ್ರ ವಿತ್ ಎನಿ ಪ್ರತ್ಯಾಹಾರ ವುಡ್ ಬಿ ಎ ವೇಸ್ಟ್. ವೈ ಯುಗಪಲ್ ಲಕ್ಷ್ಯೇ ಪ್ರಯೋಗ ಅಸಂಭವಾತ್. ತಸ್ಯ ನಾಮ ಸಮುದಾಯಸ್ಯ, ಎನಿ ಸಮುದಾಯ ದಟ್ ಯು ಗೆಟ್ ಫ್ರಮ್ ಅ ಪ್ರತ್ಯಾಹಾರ. ಯುಗಪತ್ ಲಕ್ಷ್ಯೇ ಪ್ರಯೋಗ ಅಸಂಭವಾತ್, ಕ್ವಾಪಿ ತಸ್ಯ ಸಮುದಾಯಸ್ಯ ಏಕಕಾಲೇ ಪ್ರಯೋಗ ನಾಸ್ತಿ. ತದಾ ಕಿಂ ಭವತಿ, ತದ್ ಅವಯವೇಶು ಅವತರಂತಿ ಸಂಜ್ಞಾ ತರ್ಹಿ ಅಣ್ಣಿತಿ ಸಮುದಾಯಸ್ಯ ಸಂಜ್ಞಾನ ಕಿಂತು ಪ್ರತ್ಯೇಕಂ ಅವಯವಸ್ಯ. ಸೊ ದೆನ್ ವಿ ಕ್ಯಾನ್ ಇನ್ಫರ್ ದಟ್ ಅಣ್ ಇಸ್ ನಾಟ್ ಅ ಸಂಜ್ಞಾ ಫಾರ್ ದ ಗ್ರೂಪ್ ಆಫ್ ಲೆಟರ್ಸ್ ಬಟ್ ಟು ಈಚ್ ಆಫ್ ದ ಪಾರ್ಟ್ಸ್. ಓಕೆ, ಈಚ್ ಅವಯವ ವಿಲ್ ಬಿ ಕಾಲ್ಡ್ ಅಣ್. ಸೊ ದೆನ್ ತಸ್ಯ ಚ ಯುಗಪಲ್ಲಕ್ಷ್ಯೇ ಪ್ರಯೋಗ ಸಂಭವಾತ್ ತದ್ ಅವಯವೇಷು ಅವತರಂತಿ ಸಂಜ್ಞಾ ಮಧ್ಯಗೇಷು ವಿಶ್ರಾಮ್ಯತಿ. ತತಃ ಅಣ್ ಇತಿ ಸಂಜ್ಞಾ ನ ಸಮುದಾಯಸ್ಯ ನಾಟ್ ಟು ದ ಗ್ರೂಪ್ ಬಟ್ ಟು ದ ಪಾರ್ಟ್ ಆಫ್ ದ ಗ್ರೂಪ್ ವಿಚ್ ಇಸ್ ದ ಲೆಟರ್ಸ್ ವಿಚ್ ಫಾರ್ಮ್ ದ ಪಾರ್ಟ್ ಮಧ್ಯಗೇಷು ವಿಶ್ರಾಮ್ಯತಿ. ಅಂಡ್ ಹಿ ಸೇಸ್ ಸೊ ದ ಪಾರ್ಟ್ ಆಫ್ ದ ಸಮುದಾಯ ವಿ ಟೇಕ್ ವಾಟ್ ಎವರ್ ಫಾಲ್ಸ್ ಇನ್ ಬಿಟ್ವೀನ್ ಅ ಅಂಡ್ ಲ. ಓಕೆ, ಸೊ ಹಿಯರ್ ಇನ್ ದಿಸ್ ಕೇಸ್ ವಿ ಹ್ಯಾವ್ ಇ ಅಂಡ್ ಉ. ಸೊ ಇಕಾರಸ್ಯ ಅಣ್ ಇತಿ ಸಂಜ್ಞಾ ಭವತಿ, ಉಕಾರಸ್ಯಾಪಿ ಅಣ್ ಇತಿ ಸಂಜ್ಞಾ ಭವತಿ, ಅವಯವಾನಾಂ ಪ್ರತ್ಯೇಕಂ ಸಾ ಸಂಜ್ಞಾ ಭವತಿ. ಸೊ ಅತಏವ ಮಧ್ಯಗಾನಾಂ ಇತಿ ಉಕ್ತಂ. ನತು ಆದ್ಯಂತಯೋಃ, ಹಿ ಸೇಸ್ ದ ಸಂಜ್ಞಾ ವಿಲ್ ನಾಟ್ ಅಪ್ಲೈ ಟು ದ ಆದಿ ಆರ್ ದ ಅಂತ. ವೈ ವಿ ವಿಲ್ ಸೀ ಇನ್ ದ ನೆಕ್ಸ್ಟ್ ಸ್ಟೆಪ್. ಸೊ ಸೋ ಫಾರ್ ಪ್ರಯೋಗ ಸಂಭವಾತ್ ತದವಯವೇಷು ಅವತರಂತಿ ಸಂಜ್ಞಾ ಮಧ್ಯಗೇಷು ವಿಶ್ರಾಮ್ಯತಿ. ಮಧ್ಯೆ ಯೇ ಸಂತಿ ತೇಷಾಂ ಸರ್ವೇಷಾಂ ಪ್ರತ್ಯೇಕಂ ಅಣ್ ಇತಿ ಸಂಜ್ಞಾ ಭವತಿ, ಅರ್ಥಾತ್ ಇಕಾರಃ ಅಣ್ ಉಕಾರಃ ಅಣ್. ಸೊ ಏವಂ ಸತಿ ಕಿಂ ಭವತಿ, ದಾಶರಥಿರ್ ರಾಮಃ ಇತ್ಯಸ್ತಿ, ದಾಶರಥೀ ಸು ರಾಮಃ ಸಹೃಶೋರುಃ ಇತಿ ರುತ್ರೇ ದಾಶರಥಿ ಋ ರಾಮಃ, ರೋರಿ ಇತ್ಯನೇನ ರೇಫಸ್ಯ ಲೋಪೆ ದಾಶರಥಿ ರಾಮ ಇತ್ಯಸ್ತಿ, ಢ್ರಲೋಪೆ ಪೂರ್ವಸ್ಯ ಅಣಃ ದೀರ್ಘಃ ರೇಫಾತ್ ಪೂರ್ವಃ ಇಕಾರಃ ಅಸ್ತಿ ತಸ್ಯ ಇದಾನೀಂ ಅಣ್ ಇತಿ ಸಂಜ್ಞಾ ತಸ್ಯ ದೀರ್ಘೇ ದಾಶರಥೀ ರಾಮಃ ಇತಿ ಸಿದ್ಧ್ಯತಿ. ಸೊ ನೌ ವಿ ಕ್ಯಾನ್ ಅಪ್ಲೈ ದ ಸೂತ್ರ, ಸೂತ್ರಸ್ಯ ಸಾರ್ಥಕ್ಯಂ ಸಂಪಾದಿತಂ. ಸೊ ಆದಿಹಿ ಅಂತ್ಯಶ್ಚಾಪಿ ಸಮುದಾಯ ಯಸ್ಯ ಅವಯವೌ, ಹಿ ಸೆಟ್ ಸಿನ್ಸ್ ದರ್ ಇಸ್ ನೋ ವೇರ್ ದಟ್ ದ ಸಮುದಾಯ ಕ್ಯಾನ್ ಬಿ ಫೌಂಡ್ ಟುಗೆದರ್, ದ ಸಂಜ್ಞಾ ವಿಲ್ ಅಪ್ಲೈ ಟು ಈಚ್ ಆಫ್ ದ ಅವಯವಸ್, ಪ್ರತ್ಯೇಕಂ ಅವಯವಸ್ಯ ಸಂಜ್ಞಾ ಭವತಿ. ಆದಿಹಿ ಅಂತ್ಯಶ್ಚಾಪಿ ಅವಯವೌ, ದ ಆದಿ ದಟ್ ಇಸ್ ಅಕಾರ ನಕಾರ ಆರ್ ಆಲ್ಸೋ ದ ಅವಯವಸ್ ಆಫ್ ದ ಸಮುದಾಯ, Tesham Grahanam Kutona. Why not apply to even the beginning and the end? So tada uchyate. Natu adyantayohu samnyasvarupantarbhavena tayohu pararthi nirnayat. Yuktam korthaha. Samnyahi samnyinam bodhayati. Natu samnyasvarupampi. Sarvatra ayameva niyamaha. Samnya ityukte. Samnyaya sanyinaha bodhaha bhavati. Udaharanartham vriddhiradaich. Ityasti. Vriddhihi namakim. Akara, Aikara, Ukara. So, Vriddhihi iti samnya kasya bhavati, samnyi nama adaijirupasya samnyinaha bhavati, natu svayam vriddhi shabdasya api. So, when he says, sisi vriddhihi parasmai padeshu, vriddhihi ityanena kim bhavati, ye samnyinaha. A, I, au, teshameva grahanam bhavati, samnya svarupasya grahanam na bhavati. The samnya itself is never considered. Right? Vriddhi ityasya वृद्धि न भवति केवलम आकार ऐकार उकाराणामेव वृद्धिः भवति अथवा आकार ऐकार उकाराः एव वृद्धि रूपेण विधीयन्ते न तु वृद्धि शब्दः सो संज्ञा सर्वदा संज्ञिनं बोधयति संज्ञा विल इंडिकेट द संज्ञी एंड विल नॉट इंडिकेट इटसेल्फ स्वस्य ग्रहणं संज्ञायां न भवति तदेव पारार्थ्यं संज्ञायाः परिभाषायाः पारार्थ्यं परस्य कृते Parasmai idam parartha iti. Parasmai ayam parartha. Parathasya bhavaha parartyam. So it is always for the sake of others. Okay? It always indicates something else and not itself. Samnya svarupa antarbhavena. Adyantayoho. So the adi and anta form a part of the samnya. Therefore, they will indicate something else other than themselves. And they will not be included in whatever is the samnya. Atayeva an ityukte, tayohu madhye ye santi, ikara ukaru, tayoreva grahanam bhavati, svayam akara nakara yohu grahanam na bhavati. Itkartha. Evam an iti samnya, madhye ganam bhavati, natu svayam akara nakara yohati. Atayeva, antyena ita sahitaha adihi, madhye ganam samnya syat. Iti uktam. Kinto adehe api grahanam, antyasya grahanam na apekshyate. So we do not want the antya to be included in the pratyahara, which is obvious, right? Only ityukte nakarasya grahanam na ishyate. Kinto adehe grahanam apekshyate. We need the akara to be included in an. Adehe grahanam apekshyate. Katham, an pratyahare, akarasya grahanam katham, iti prashna. Tada uchyate, svasya cha rupasya iti. Svasya cha iti atayeva. Siddhantakaumudyam arthe likitam. Antyena ita sahitaha adihi madhyaganam swasyacha rupasya. Swasyacha samya bhavati. Katham swasyacha iti swam rupam shabdasya shabda samya iti purvam sutram asti. So it is the 68th sutra of the first pada. This is 71st. So tataha swam rupam iti anuvartate. So we take swam rupam as the anuvritti from samrupam shabdasya shabda samnya tena kim nyayate swasya cha rupasya swasya api samnya bhavati antyena ita sahitaha adihi madhyaganam swasya cha samnya bhavati swasya ityukte kasya of itself he says you have adi and antya together so they will indicate letters which fall in between and they also indicates itself so what is itself swasya ityukte kasya Adehe, antyasyava, ubhayorva, iti prashne, adereva, swamrupamcha, adereva grihyate, na antyasya. So there's a typing error, it should be na antyasya. So the swamrupam itself refers only to the adi and not to the antya. Why? Antyena iti apradhana tritiya nirdeshat. Sutra kimasti adihi, antyena itasaha. Antyena ita saha. Antyena iti apradhana tritiya nirdeshat. Sahayukte apradhane iti sutram. Sahayukte. Saha iti padasya yoga sati. Apradhanasya tritiya vibhakti vidhiyate. So the pradhana will be the karta and the apradhana will get tritiya vibhakti. Ramaha sitaya saha gachati. Sitte kaha gachati. Ramaha gachati. Sitaya saha. Actually, both of them go. Ramaha api gachati, Sita api gachati. Kinto, shabdataha pradhanyam Ramasyeva. Tingantena gachati. Ityukte,
कः गच्छति रामेण सह एव अन्वयः गमनक्रियायाः सीता तु अप्रधानम् अप्रधानस्यैव सहयुक्ते अप्रधाने इत्यनेन तृतीया विधीयते अतः अत्र आदिः प्रधानम् अन्त्यम् अप्रधानम् इति अवगतम् सर्वनाम्नाम् स्वस्य च इति उच्यते स्वम् इति सर्वनाम स्व इस् ए प्रोनौन् सर्वनाम्नाम् उत्सर्गतः प्रधानपरामर्शित्वात् सर्वनामानि सर्वदा प्रधानमेव निर्दिशन्ति न तु अप्रधानम् से फार् एक्साम्पल् यु केन् लुक् एट् अ जनरल् एक्साम्पल् इट् विल् बि क्लियर् पुत्रः पित्रा सह शालां गच्छति इत्यस्ति द सन् गोस् टु द स्कूल् अलाङ्ग् वित् द फादर् तत्र सः पाठान् पठति अण्ड् देर् ही लर्न्स् हिस् लेसन् कः पठति हु रीड्स् पिता आर् पुत्रः दिस् सेण्टेन्स् वाट् डु यु अण्डर्स्टाण्ड् पुत्रः पित्रा सह शालां गच्छति तत्र सः पाठान् पठति सः इत्युक्ते कः पुत्रः रैट् इट् इस् कामन् ऐ मीन् दट् इस् हौ यु अण्डर्स्टाण्ड् ऐ मीन् ईवन् इन् इङ्ग्लिश् इफ् यु लुक् एट् द सेन्टेन्स् द सन् गोस् टु द स्कूल् अलाङ्ग् वित् हिस् फादर् देर् ही रीड्स् द लेसन्स् ही आल्वेस् रेफर्स् टु द पुत्र अण्ड् नेवर् रेफर्स् टु द पिता इट् इस् कामन् रूल् कः पठति पुत्र एव पिता वै पुत्रः प्रधानं पुत्रः गच्छति सः पठति सर्वत्र क्रियया सह प्रधानस्य एव अन्वयः न तु अप्रधानस्य एवमत्रापि आदिः अन्त्येन इता सह अन्त्येन इत्सम्यकेन वर्णेन सह विद्यमानः आदिः मध्यगानां भवति स्वस्य च इति अनुवर्तते स्वं रूपम् इति कस्य स्वं रूपम् आदेरेव स्वं रूपम् अतः आदेः अपि ग्रहणं भवति न तु अन्त्यस्य अतः सूत्रार्थः सिद्धः अन्त्येन इतासहितः आदिः मध्यगानां स्वस्य च संज्ञा स्यात् स्वस्य नाम आदेरपि संज्ञा स्यात् तेन किं भवति अण् इत्युक्ते अकार इकार उकाराः इत्यर्थः सिद्ध्यति So, I'll read the Moola regarding this part. So, see if you have understood everything. Moola Matram Pathyate. Madhyaganam iti. Adhyantabhyam avayavabhyam avayavi samudayaha akshityate. Tasya nama samudayasya. Tasya cha yugapat lakshye prayogabhavat. Tad avayaveshu avataranti samnya. Madhyageshu vishramyati. Natu adhyantayohu. संज्ञास्वरूपान्तर्भावेण तयोः पारार्थ्यनिर्णयात् इति भावः स्वस्य च इति स्वं रूपम् इत्यनुवृत्तेः स्वं रूपं च आदेरेव गृह्यते न अन्त्यस्य अन्त्येन इति अप्रधानतृतीया निर्देशात् सर्वनाम्नाम् उत्सर्गतः प्रधानपरामर्शित्वात् यस्य अवयवाः सन्ति सः अवयवी आर्गानिसम् दट् आफ् विच् दीस् आर् द पार्ट्स् अवयवाः नाम भागाः सो यस्य इयं भागाः सः अवयवी यथा हस्तपादादयः अवयवाः मनुष्यः अवयवी अवयवाः अस्य सन्ति इति अवयवी अत्र तु समुदायः उच्यते अर्थात् अ इ उन् इति समुदायस्य आदिः अकारः अन्त्यः णकारः अन्यः कोऽपि प्रश्नः हा
उत्सर्गतः इत्युक्ते साधारणतया एज अ जनरल रूल सर्वनाम्नां प्रधान परामर्शित्वं सर्वनाम्ना किं परामृश्यते यत् प्रधानं तदेव परामृश्यते उत्सर्गतः सामान्यतः सर्वे नियमाः सापवादाः अतः क्वचित् अपवादः स्यात् किन्तु सामान्येन सर्वनामभिः किं निर्दिश्यते इत्युक्ते प्रधानं यत् पूर्वत्र उक्तं सर्वनाम्ना पूर्वोक्तस्य निर्देशः प्रोनौन् विल् आल्वेज् इण्डिकेट् सम्थिङ्ग् विच् इस् बीन् टोल्ड् अर्लियर् सो कस्य पूर्वं यत् प्रधानमस्ति तस्यैव परामर्शः क्रियते सर्वनाम्ना यथा अत्र उक्तं साक्षात् पुत्रः पित्रा सह शालां गच्छति इत्युक्तं सः इति सर्वनाम्नः निर्देशः कस्य परामर्शः सः इत्यनेन पितुः वा पुत्रस्य वा इति चेत् यः प्रधानं तस्य परामर्शः पुत्रस्य परामर्शः स्व आम् तत्र अस्माकं स्व इत्यनेन इदानीं किमुच्यते अन्त्येन इतासहितः आदिः मध्यगानां स्वस्य च इत्युक्तं स्वम् इत्युक्ते आदिर्वा अन्त्यं वा इति प्रश्नः सो इन् द प्रीवियस् लैन् वि हव् हा अकारः नाम आदिः आदेः ग्रहणं परामर्शः Yes, yes, Sva is a Sarvanama. That is why we say, he says, Sarvanamnam Pradhana Paramashitva. Since Sva is a Sarvanama, it indicates that which is Pradhana in the previous, whatever was told previously. So, we saw both Adi and Antya. But Adi is Pradhanam, Antyam Apradhanam, Apradhana Tritiya. Therefore, Sva refers to the Adi and not to the Antya. No, no. I'm sorry, I did not understand you. Sva is... Anniti samyasti. Adehe. Satyam. Adehe pradhanyam. Adehe pradhanyam to sahayuktya pradhanetya. No, no. Adehe pradhanyam asti. सहयुक्ते अप्रधाने तेन अप्रधानस्य तृतीया विधानम् अत एव अन्त्येन इत्यस्य तृतीया अस्ति अन्त्येन इति अप्रधानम् आदिः इति प्रधानम् इति अवगतम् इदानीं स्वम् इति स्वरूपम् इत्यतः अनुवर्तते स्वम् इत्यनेन कस्य परामर्शः इति प्रश्नः स्वम् इति सर्वनाम तत्र अस्ति सर्वविश्व उभय तत्र स्व इति पदमस्ति यतः सर्वनाम कस्य परामर्शः इति चेत् प्रधानस्य एव परामर्शः कथं ज्ञायते प्रधानस्य एव इत्युक्ते अयं नियमः सर्वनाम्नाम् उत्सर्गतः प्रधानपरामर्शित्वात् अन्यः कोऽपि प्रश्नः आम् अकार इकारोकाराः समीनः Can we move ahead? Dvitiya varam halantyam disutram pathyate siddhantakaumudyam. Prathama varam kahartha hal iti sutre antyam ityat ityarthaha. Dvitiya varam kortha halantyam ityasya. What is the meaning when it is repeated a second time? Kahartha dattaha dikshitaihi. उपदेशे अन्त्यं हल् इत्स्यात् इत्यर्थः उपदेशः नामकः उपदेशः आद्योच्चारणम् इति सिद्धान्तकौमुद्याः पङ्क्तिः सो टु रिमैण्ड् यू एनिथिङ्ग् दट् इस् ग्रीन् इस् फ्रम् द सिद्धान्तकौमुदी एनिथिङ्ग् दट् इस् इन् रेड् इस् फ्रम् द प्रौढमनोरमा मूल सो एव्रिथिङ्ग् एल्स् इस् वाट् ऐ हेव् रिटन् ऐ मीन् रेफरिङ्ग् टु द कमेण्टरीस् आफ् कोर्स् इट् मैट् नाट् बी मै ओन् वर्ड्स् बट् नाट् बिलोङ्ग् टु द मूल सिद्धान्तकौमुदी हरिद्वर्णेन निर्दिश्यते प्रौढमनोरमायाः मूलपङ्क्तिः रक्तवर्णेन निर्दिश्यते अन्यत् सर्वं कौमुद्यां किमुच्यते उपदेशे अन्त्यं हल् इत्स्यात्
हल इति प्रत्याहार ज्ञानम् इदानीम् अस्ति अतः अर्थात् हल् इति व्यञ्जनम् इति अवगतम् उपदेशे इत्यस्ति उपदेशः नाम कः उपदेशः आद्योच्चारणम् इत्युक्तम् ईशतैः किं तत् बालमनोरमायां पश्यामश्चेत् उपशब्दः आद्यर्थकः दिशिः उच्चारणक्रियायां भावे घञि इति भावः सूत्रस्य निष्पत्तिः कथम् उप इति उपसर्गः आद्यर्थकः दिशि उच्चारणक्रियायां सो निर्देशः इत्यत्रापि तदेव उक्तं दिशि दिश उच्चारणे सो दिशति निर्दिशति तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यादि सो दिश् इस् फार् उच्चारण अटर्ड् आद्योच्चारणम् उपशब्दः आद्यर्थकः भावे घञि उपदेश इत्यस्ति कथम् उप उपसर्गपूर्वकस्य दिश् धातोः भावार्थे उच्चारणं क्रिया भावः नाम व्यापारः धात्वर्थः व्यापारः क्रिया सो द एक्ट् आफ् प्रोनौन्सिङ्ग् इत्यर्थे उच्चारणक्रिया इत्यर्थे भावार्थे घञि इति प्रत्ययः क्रियते उपदिश् घञि इत्यस्ति घञि प्रत्यये ण्यकारस्य हलन्त्यमित्यनेन इत्सम्या घकारस्य लशक्वदधिते इत्यनेन इत्सम्या अ अकार एव शिष्यते सो उपदिश् अ इत्यस्ति पुगन्थलघुपदस्य च इत्यनेन उपधायाः गुणे उपदेश इति रूपं सिद्ध्यति दीक्षितस्य उपदेश द वर्ड् उपदेश इस् डिरैव्ड् बै आडिङ्ग् द प्रत्यय घञि इन् भावार्थ भावार्थे घञि प्रत्ययः उपदेशशब्दस्य कः अर्थः आद्योच्चारणम् सो द फस्ट् प्रनौन्सियेशन् आफ् संथिङ्ग् So what is Adhyacharana? What do we understand by this? So when Panini tells something for the first time, so with intention to clarify its, to indicate its Swarupa, okay? So then we call it as Upadesha, the first pronunciation. For example, he says, just a moment please, Mama? So, the first time, karmanyana ityuchyate, ann iti pratyayah, prathamavaram upadishyate. Okay. So, he is telling that for the first time with the intention to give it swarupa. Ataha saha upadeshah, adyocharanam. Tatra antyam namanakaraha itsamyakah bhavati. Upadeshah adyocharanam. A, e, un iti varna samamnaya, prathamavaram uchyate. So, varnanupurvi. निर्देशार्थं स तत्र नकारस्य इत्सम्यः भवति हलन्त्यम् इत्यादयः अर्थाः उपदेशः आद्योच्चारणम् इति सो अत्र विषये बहवः भेदाः सन्ति वाट् इस् उपदेश स दीक्षित हियर् राडिकलि डिफर्स् फ्रम् वाट् हेस् बीन् टोल्ड् इन् आल् प्रीवियस् ग्रन्थस् स्टार्टिङ्ग् फ्रम् वार्तिका द भाष्य काशिका एव्रिवेर् सो द डिरेवेशन् गिवन् बै दीक्षित सो दीक्षितैः भावे घञि प्रत्ययः तस्य आद्योच्चारणम् इत्यर्थः इति साध्यते तत्तु इट् इस् टोटलि डिफरेण्ट् फ्रम् वाट् हेस् बीन् टोल्ड् बै आल् प्रीवियस् शास्त्रकारः उपदेशः इत्यस्य किमुच्यते पूर्वत्र इति पश्यामश्चेत् काशिकायां किमस्ति उपदिश्यते अनेन इति उपदेशः शास्त्रवाक्यानि सूत्रपाठः खिलपाठश्च अकर्तरिचकारके संज्ञायाम् इति करणे घञि सो दिस् इस् फ्रम् द न्यास So, the Kashikakara says, Upadishyate anena iti upadeshaha. So, bhave ghai ityukte upadishyate. So, there is a difference between the derivation. If you are familiar with Kridantas, you will know. So, purvam kim uktam upadesha kriya eva upadeshaha. Bhave ghai iti dikshitanam matam. Kashikayam kim asti upadishyate anena iti upadeshaha. Anena karanena. That instrument through which upadesha is done. Okay. Iti upadeshaha nama shastravakyani sutrapathaha khilapathascha. So by that, so we take the karana, the instrument of upadesha. Okay. So that, what is the pratyaya? He says, tatrapi ghai pratyaya eva, kintu karane ghai, karanam nama, karanarthakattam, instrument ityarthe, करणार्थे घञ् प्रत्ययः केन सूत्रेण अकर्तरि च कारके अकर्तरि कारके कर्तृभिन्ने कारके भवति इति सूत्रेण करणे घञ् प्रत्ययः Tena upadishyate anena iti upadeshaha. So that instrument through which upadesha is made, that is what is called upadesha. So by that he takes shastra vakyani, sutra patha, kila pathascha. So that is the sutras, and kila patha is like ganapatha, linganushasana, etc., which are associated with the shastra. So all these are termed upadesha according to the Kashika, because they are the instruments for upadesha, to make you know something. अतः करणे घई इति काशिकायां दत्तम्. If you have studied the लघुकौमुदी, so लघुकौमुदी derives from the प्रक्रिया कौमुदी. प्रक्रिया कौमुदी इति सिद्धांत कौमुद्याः पूर्वतनः ग्रंथः. It was before the सिद्धांत कौमुदी, that was the most popular प्रक्रिया ग्रंथ. It was composed around the 12th century or 13th century AD by Ramachandra. Okay. So that was the most before, the Siddhanta Kaumudi was modeled on the Prakriya Kaumudi. Prakriya Kaumudyaha Kramayanaya Siddhanta Kaumudi Rachita Astata. Prakriya Kaumudyam Kimasti, Tadeva Laku Kaumudyam Api Ullikhyate, Dhatu Sutra Ganonadi Vakyalinga Anushasanam, Agama Pratyayadesha Upadesha Prakirtitaha. So he agrees with the same thing, that is Upadishyate Anena Iti Upadeshaha. So, what are the things that are taken or understood by Upadesha? Dhatu, Dhatu Pataha, Sutram, Sutra Pataha, Gana Pataha, Unadi Sutrani, Vakyam Nama Vartikam, Linganushasanam, Agama Pratyaya Adeshaha, Agamaha Pratyaha Adeshaha, Ete Sarvevi Upadesha Prakirtitaha, Iti Tatra Uchyate. Okay. So, both these are the popular thing, this Vartika is, this Karika is especially very popular because it helps you to understand actually what is Upadesha. Whether you say Upadesha Adhya Charanam or Upadishyate Anena Iti Upadeshaha, Kaha Saha Iti Astutaha Jnanam Nabhavati Ataha Sarve Eta Deva Udaharanti. So this is the most practical Karika for knowing what exactly is. Basically, to know where we apply halantyam or upadesha jananashika iti. Anena eva jnayate. Kintu, eta dvayam api dikshitaihi khandyate. Vartikam, if you go back and see what the Vartikakara or the Bhashyakara has told, Vartikakarena uchyate, siddhantu upadeshane ajanunasika iti vachanat. Vatra upadeshe ajanunasika iti ityatra vicharas kriyate. That is why we see we come across the word upadesha first, right? Upadesha yadana nasikaitu, tata eva halantya mityatran vartate. Vartika karaha vadati, upadeshane ajana nasikaha iti vatanam kartavyam. He says, upadeshane achu iti vaktavyam. Why? And the Bhashikara overrules it. Why? Because he says, upadishyate anena iti padeshaha. Tadeva vartika karena angikirete karana vitpatihi. Kintu karane ghaini pratyaha na bhavati, kintu lyut pratyaha bhavati. So in karanartha, okay, in the meaning of karana, so the Vartikakara says it is not ghaini pratyaya but lyut. So for example, the word karana itself is derived from kriyate anena iti karana. So karana, please excuse me for a moment. Karana shabdasyeva nishpatihi kr dhatoho lyut pratyaha. Lyut is always replaced by ana. Okay, so kr lyut, kr ana, karana. Guna bhavati, anattvam bhavati, karanam. Kriyate anena. So karana arthe dhatoho lyut pratyaha bhavati. Okay, what are the... sadhyate anena iti sadhanam. So the instrument again. So all these cases, karanarthe sarvada lyut pratyaya bhavati natu ghai. Ataha upadeshanam. Upadeshyate anena iti upadeshanam. So wherever you have this ana, it is lyut pratyaya. So vartika karaha vadati karana vyutpattireva karanameva kintu upadesha iti rupam na sadhu upadeshanam iti bhavet. Upadeshane ajanunasikaha iti vaktavyam iti vartika karena upte hashikaraha vadati upadeshaha iti karane ghai upadishyate anena. सो सः अपि कर्णव्युत्पत्तिमेव अङ्गीकरोति. करणे घञ् किन्तु करणे एव घञ् प्रत्ययः न तु ल्युट् इति भाष्यकारमतम्. उपदेशः इति करणे घञ् उपदिश्यते अनेन इति उपदेशः. सो दट् बै विच् उपदेश इस् मेड् इस् काल्ड् ऐ मीन् दट् बै विच् यु हि टेल्स् फस्ट् इस् काल्ड् उपदेश. That is what is quoted by the Kashikakara. Upadishyate anena ityupadeshaha nama shastravakyani ityadi. So, tachya shastram, shasana karanam. So, the karana for shasana is pratyasatya. Etat shastriya. So, the karana for what? Of shasana. Shastram. Upadeshaha nama shastram. Shasanasya karanam. Kasya shasanam ityukte. Etat shastriya. धातु आगम प्रातिपदिक प्रत्याहार सूत्र प्रत्ययादेश रूपम. सो दिस इज फ्रॉम द शब्दरत्न विच इज अ कमेंटरी ऑफ द प्रौढ़वनरम. सो ही सेज दट इंस्ट्रूमेंट बाय प्रत्यासत्ति दट इज अमीन इट कैन नॉट बी एन इंस्ट्रूमेंट फॉर समथिंग एल्स इट शुड बी एन इंस्ट्रूमेंट फॉर दिस शास्त्र व्याकरण शास्त्रे किं दृश्यते धातु आगम प्रातिपदिक प्रत्याहार सूत्र प्रत्यय आदेश इत्येते दृश्यते. तदेव भाष्यकारेणापि उच्यते धातु प्रातिपदिक निपात प्रत्याहार सूत्र प्रत्ययादेशागमानाम् अन्त्यम् इत् स्यात्. सो हलन्त्यम् इत्यत्र महाभाष्यकारेण एवम् उच्यते एतेषां धातु प्रातिपदिक इत्यादीनाम् अन्त्यम् इत् भवति इति भाष्यम्. तदेव कारिकायां पुनः उच्यते प्रक्रियाकौमुदीकारेण धातु सूत्रगणोनादि इत्यादि. सो दिस् इस् द विचार विच् हस् बीन् गान् अर्लियर् बट् दीक्षित डिफर्स् हि सेस् अद्योच्चारणमिति यद्यपि उपदिश्यते अनेन इति करणव्युत्पत्त्या शास्त्रम् उपदेशः इति भाष्यवृत्त्यादिषु व्याख्यातम्. सो उपदेशः नाम शास्त्रं शासनकरणं शास्त्रम् इति भाष्यवृत्त्यादिषु व्याख्यातं महाभाष्ये तथा वृत्त्यादिषु काशिकावृत्तौ अन्यत्र च सर्वासु वृत्तिषु तथैव व्याख्यायते. उपदिश्यते अनेन इति करणव्युत्पत्त्या शास्त्रम् उपदेशः इति भाष्यवृत्त्यादिषु व्याख्यातम् तथापि तत् प्रौढिवादमात्रम्. सो हि रिजेक्ट्स् इट् औट्सैड् एण्ड् इस् प्रौढिवाद. प्रौढिवाद इस् वाद विच् इस् मेड् जस्ट् टु शो आफ् वन्स् प्रौढता वन्स् scholarship and is not really logical. Okay, so Praudhivada, that is what is called Praudhivada. Basically he says it is not right whatever has been told in the Bhashya or the Vritti, saying that it is Karana Vyutpatti is not right. Yadyapi upadishyate anena iti Karana Vyutpatya shastram upadeshaha iti Bhashya Vritya ishu vyakhyatam tathapi tat Praudhivada matram. Karane ghayo durlabhatvat yuta badhat. Why? He says very clearly, there is no ghañ in karana. Karane ghañ pratyayaha na labhyate. Karane ghañaha durlabhatvat yuta badhat. Kimartam yut pratyayena tasya badhyate. So to understand this, you have to know a bit about the kridantas. Okay? Kridanta prakarane katham badhya badhika bhavaha ityadi. So we'll just go to the next slide. So there is ghañ. Okay? Ghañ pratyayaha. पदरजविषस्पृशो घञ् सुस्थिरे भावे. सो द मेन् सेन्स् आफ् घञ् प्रत्यय इस् इन् भावार्थ. द मोस्ट् पाप्युलर् यूसेज् आफ् घञ् इस् इन् भाव. ओके, भावार्थे घञ् प्रत्ययः सर्वत्र भवति. पाकः रागः पच्यते इति पाकः. पाक इस् द एक्ट् आफ् कुकिङ्ग्. सो राग इस् द एक्ट् आफ् कलरिङ्ग् एट्सेट्रा. सो भावार्थे घञ् प्रत्ययः प्रसिद्धः. ततश्च अकर्तरि च कारके संज्ञायाम् इत्यस्ति. अकर्तरि कारके कर्तृभिन्ने कारके अपि घञ् प्रत्ययः दृश्यते संज्ञायाम् यदि संज्ञा भवति. यथा रमन्ते योगिनः अस्मिन् इति रामः इत्युच्यते. सो देर् इस् ही इन् हूम् योगिनः रमन्ते सः रामः. रामः इति संज्ञा कस्य? अकर्तरि कारके अपि घञ् प्रत्ययः भवति. एतत् घञ् निधायकम्. ततः नपुंसके भावे स्तः ल्युट् च. देर् इस् ल्युट् विच् इस् अगेन् नपुंसके भावे. नपुंसके ल्युट् भवति. पुनः करणाधिकरणयोश्च करणे अधिकरणे च ल्युट् भवति. सो हि सेज् देर् इस् ल्युट् प्रत्यय इन् करण अण्ड् अधिकरण. करणे अधिकरणे च विशिष्य ल्युट् प्रत्ययः विधीयते. आदौ अकर्तरिकारके सामान्यतः घञ् प्रत्ययः विधीयते, किन्तु करणाधिकरणयोः ल्युट् भवति इति उच्यते पुनः. So you can also look at the sutra numbers. So parasutram badhakam cha. So karane adhikarane cha. Yedi samnya nasti tarhi yut pratyaha eva bhavet. So this is, so far we have ghai and we have yut. So Dikshita says karane ghayaha durlabhashva. Karanarthe ghai pratyaha na bhavati. Kimartham yuta badhat. Agre karana adhikarane vashchatyane yut pratyaha vidhiyate. Ataha yudeva bhavet. करणार्थे घञ् प्रत्ययः न भवति. अतः उपदेश्यते अनेन इति करणे घञ् इति वक्तुं न शक्यते. सो हि सेज़ सिंस देयर इज ल्युट् विच ओवर रूल्स घञ्, यू कैन नॉट हैव घञ् इन करणार्थ. लेट्स गो बैक टू द मूल. करणे घञः दुर्लभत्वात् ल्युटा बाधात् न च घः असंज्ञात्वात्. So then again there is one more pratyaya which is gha. Okay, we have ghai and then there is yut. Karanadhikaranayascha. Poonsi samnyayam ghaha prayena. Yutaha apavadatvena gha pratyaha vidhiyate. There is also gha which is given as an exception to yut. Yutaha apavadatvena ghaha. Kutra poonsi samnyayam. Pullinge samnyayam ghaha. Gha pratyaha bhavati. Okay. So, ljut pratyaha napumsakalinge. Okay, like you have karanam or sadhanam. Napumsake bhavektaha ityatah napumsakam ityanavat. Okay. Pumsi samnyayam, yadi pullingam, yadi samnya. Pullinge yadi samnya, tarhi ghaha, prayena gha pratyaha bhavati. Prayena ityatvat, kvachit ljudapi bhavati, kintu prayena gha pratyaha bhavati. Pumsi samnyayam. So, etadasti. So, there is ghani. To overrule ghai, there is lyut. To overrule lyut, there is gha. So, can we have gha here? Gha pratyaya api samanam rupam. Upa disha ityanena. Yadi gha pratyaha bhavati, tatha api upadesha ityeva rupam bhavati. Kintu, sopi na. Nacha ghaha asamnyatvat. Upadeshaha, upadesha is not a samnya. You are deriving it etymologically, right? Upadishyate anena. That through which, anything through which there is upadesha. ಕೇನ ಉಪದಿಶ್ಯತೆ ಉಪದೇಶ ಕ್ರಿಯಾ ಏನೇನ ಕರಣೇನ ಭವತಿ ತತ್ಸರ್ವ ಉಪದೇಶಃ ಇತ್ಯುಚ್ಯತೆ. ಉಪದೇಶ ಇಸ್ ನಾಟ್ ಅ ಸಂಜ್ಞಾ ಫಾರ್ ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ಥಿಂಗ್. ಸೊ ಎವ್ರಿಥಿಂಗ್ ಥ್ರೂ ವಿಚ್ ಯುವರ್ ಉಪದೇಶ ಇಸ್ ಡನ್, ದಟ್ ಇಸ್ ಕ್ರಿಯಾ ಆಫ್ ಉಪದೇಶ ಇಸ್ ಡನ್, ಕ್ಯಾನ್ ಬಿ ಕಾಲ್ಡ್ ಉಪದೇಶ. ಸೊ ಇಟ್ ಇಸ್ ನಾಟ್ ಅ ಸಂಜ್ಞಾ. ಸಂಜ್ಞಾ ನಾಸ್ತಿ ಇತ್ಯತಃ ಘ ಪ್ರತ್ಯಯೋಪಿ ನ ಭವತಿ. ಪುಂಸಿ ಸಂಜ್ಞಾಯಾಂ ಘಃ ಇತ್ಯಪಿ ನ ಭವತಿ. ಸೊ ಯು ಕೆನಾಟ್ ಹ್ಯಾವ್ ಘೈ because it is overruled by yut. You can neither have gha because it is not a samnya. Tatra kimuchyate kaishchit tatra bhumsi samnyayam ghaha prayena ityasti. Gha arthaha prayena pullinge samnyayam gha pullinge samnyayam prayena gha pratyaha bhavati. Mostly there is gha ityarthaha. So in pullinga and in samnya mostly we find gha pratyaya. ಪ್ರಾಯೇಣ ಘ ಪ್ರತ್ಯಯ ಭವತಿ, ಕ್ವಚಿತ್ ಲ್ಯುಟ್ ಅಪಿ ಭವತಿ, ಅನ್ಯ ಪ್ರತ್ಯಯಃ ಅಪಿ ಭವಿತುಮ್ ಅರ್ಹಂತಿ. ಕಿಂತು ಘ ಪ್ರತ್ಯಯಃ ಪುಲ್ಲಿಂಗೇವ ಸಂಜ್ಞಾಯಾಮೇವ. ಓಕೆ, ಸೊ ಘ ಇಸ್ ಆಲ್ವೇಸ್ ಇನ್ ಪುಲ್ಲಿಂಗ ಅಂಡ್ ಸಂಜ್ಞಾ. ಕೈಶ್ಚಿತ್ ಕಿಂ ವ್ಯಾಖ್ಯಾಯತೆ ಪ್ರಾಯೇಣ ಸಂಜ್ಞಾಯಾಂ ಪುಂಸಿ ಘಃ. ಸೊ ಘ ಪ್ರತ್ಯಯಃ ಪುಲ್ಲಿಂಗೇ ಭವತಿ ಮೋಸ್ಟ್ಲಿ ಇನ್ ಸಂಜ್ಞಾ. ಸೊ ಇಟ್ ಮೀನ್ಸ್, so where is the prayena referred to? Prayena is mostly, that is, there is an exception. So mostly prayena ghaha ityukte pullinge samnyayam gha pratyayah bhavati. Prayena gha pratyayah bhavati kvachir anye pratyayah api bhavitum arhanti ityartha. Tada kim bhavati gha pratyayah pullinge eva samnyayam eva kvachit pullinge samnyayam anyaha api pratyayah bhavitum arhati ityartha. Now, if prayena is associated with samnyayam, prayena samnyayam pumsi ghaha. So, gha pratyaya is added mostly in samnya. So, if this mostly refers to the samnya, is associated with samnya, then kaha arthaha phalati? Pumsi ghaha pratyaya bhavati prayena samnyayam. Arthat, kvachit asamnyayam api ghaha bhavati ityartha phalati. ओके सो कैन ही यूज दैट इति प्रश्ने सः वदति प्रायेण संज्ञायाम् इति व्याख्यानस्य क्लिष्टत्वात् सो वाट् इस् प्रायेण असोसिएटेड् वित् इस् इस् असोसिएटेड् वित् घ आर् वित् संज्ञायाम् प्रायेण घः प्रत्ययः इति वा प्रायेण संज्ञायां घः इति वा इति प्रश्नः सो सिद्धान्तस्तु प्रायेण घः इत्येव पुंलिङ्गे संज्ञायां घ प्रत्ययः प्रायेण भवति क्वचित् अन्यप्रत्ययोऽपि भवति इत्यर्थः घ प्रत्ययः संज्ञायामेव भवति पुल्लिङ्गे एव भवति इदं च न संज्ञा अतः घः न प्रायेण संज्ञायाम् इति व्याख्यानस्य क्लिष्टत्वात् न हि उपाधेः उपाधिर्भवति इत्यादिना भाष्यकृता अवहेलनाच्च सो द भाष्यकार आल्सो डस् नाट् एक्सेप्ट् दट् प्रायेण इस् असोसिएटेड् वित् संज्ञायाम् ओके न हि उपाधेः उपाधिर्भवति सो वि विल् लुक् एट् दट् अ बिट् लेटर् सो कीप् दट् फार् नौ बिकास् इट् इस् सिम्प्लि काम्प्लिकेट् थिङ्ग्स् सो नौ ऐ मीन् हि बेसिकलि सेस् घप्रत्ययः न भवति घप्रत्ययः संज्ञायामेव विहितः इयं च न संज्ञा अतः घप्रत्ययोऽपि न भवति घञ् न भवति ल्युटाभादात् ल्युटाबाधात् घप्रत्ययः अपि न भवति असंज्ञात्वात् अत एव घापवादः हलश्च इति घञ् अपि इह न सो दर् इस् वन् मोर् घञ् सो प्रक्रिया इफ् यु गो बेक् टु द कृदन्तास् आदौ अकर्तरिकारके घञ् विधीयते ततः करणाधिकरणयोः इत्यनेन ल्युट् घञः बाधकः पुंसि संज्ञायां घः इति ल्युटः बाधकः सो आल्वेज् विच् कम्स् लेटर् विल् ओवर् रूल् द फस्ट् वन् सो घ प्रत्यय इस् एन् एक्सेप्शन् टु ल्युट् सो अगेन् यु हाव् हलश्च इति घ प्रत्यय हलश्च इति घञ् ओके अवेतृत्रोर्घञ् हलश्च मध्ये पुनः घञ् आरभ्यते सो दिस् घञ् इस् एन् एक्सेप्शन् टु घः ओके हलश्च इत्यस्ति हलन्तात् धातोः पुंसि संज्ञायां घञ् भवति इत्यर्थः इन् पुल्लिङ्ग एण्ड् इफ् इट् इस् संज्ञा इफ् द धातु इस् हलन्त अगेन् वी हाव् घञ् एस् एन् एक्सेप्शन् टु घ बट् सिन्स् दिस् इस् नाट् अ संज्ञा हलश्च इति घञ् अपि न भवति सो हि इस् गिविङ्ग् आल् पासिबल् अत एव घापवादः हलश्च इति घञ् अपि इह न सो आदौ करणे घञ् अस्ति अकर्तरिचकारके इत्यनेन यः घञ् विधीयते सः ल्युटा बाध्यते अतः भवितुं नार्हति करणाधिकरणयोश्च इत्यनेन ल्युडेव भवति ल्युटः बाधकत्वेन घ प्रत्ययः अस्ति पुंसि संज्ञायां घः इति सूत्रेण किन्तु संज्ञा न इत्यतः घ प्रत्ययः न भवति तस्य घ प्रत्ययस्य अपवादत्वेन हलश्च इति घञ् विधीयते किन्तु सोऽपि पुंसि संज्ञायां पुल्लिङ्गे संज्ञायामेव विधीयते अतः उपदेशः इत्यत्र सः घञ् अपि भवितुं नार्हति बाहुलकं तु अगतिकगतिः सो देर् इस् वन् मोर् फैनल् सल्यूशन् कृत्यल्युटो बहुलम् इति सूत्रं कृत्यप्रत्ययाः कृत्य इति सप्तप्रत्ययाः सन्ति तव्यत्तव्यनीयरः एट्सेट्रा कृत्य ल्युटः अण्ड् ल्युट् प्रत्यय बहुलं बहुलग्रहणं सीन् बहुलग्रहण इन् मेनि केसस् इन् द कौमुदी रैट् क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचित् द्विभाषा क्वचिदन्यदेव सो बहुल इस् अ वेरी ओम्निपोटेण्ट् टेक्निक् ओके वेन् हि सेज् बहुल क्वचित् प्रवृत्तिः बहुलग्रहणेन यद्विधीयते तत् क्वचित् प्रवर्तते क्वचित् न प्रवर्तते क्वचिदप्रवृत्तिः क्वचित् विभाषा कुत्रचित् विकल्पेन प्रवर्तते क्वचिदन्यदेव अन्यः अपि विशेषे अन्ये अपि विशेषे विशेषाः अर्थाः भवितुमर्हन्ति अतः बहुलग्रहणं यत्र अस्ति तत्र स्वातन्त्र्यं भवति सो देर् इस् अ वैड् रेञ्ज् आफ् मीनिङ्ग्स् विच् केन् बि कन्वेर्ड् बै बहुलं सो हि सेस् ल्युट ल्युट् बहुलं ल्युट् ग्रहणं बहुलं भवति इत्युच्यते सो दट् इस् हौ द काशिकाकार आर् एव्रिबडि सपोर्ट्स् देर् करणे घञ् करणे घञ् इति कथम् उच्यते ल्युटः बाहुलकात् सिन्स् ल्युट् इस् बहुलं क्वचित् प्रवृत्तिः क्वचित् अप्रवृत्तिः इन् सम् केसस् ल्युट् विल् नाट् अप्लै सो इन् केस् आफ् उपदेश ल्युटः अप्रवृत्तिः इति सर्वेषां मतम् एव्रिबडि ऐ मीन् वेनेवर् दे से करणे घञ् भाष्यकारेण वा काशिकाकारेण वा करणे घञ् इति यत्र उच्यते तत्र तदेव स एव अर्थः ल्युट् बहुलम् इत्युच्यते बहुलग्रहणात् अत्र ल्युट् न प्रवर्तते अकर्तरिसकारके इत्यनेन घञ् भवति इत्यर्थः. बाहुलकत्वं तु अगतिकगतिः.
सो टु यूस् बहुल, इट् इस् अनदर् सच् टेक्निक् लैक् वि हाड् सह सुप. We cannot use it everywhere. I mean, it is there to support some prayogas. Kintu sarvatra upayogaha na ishyate.
Agatika gatihi. Yatra kaapi gatihi nasti, tatra eva bahula grahanam samarthanatvena upayoktum shakyate. Atra tu anya gatihi asti.
So here, Dikshitar wants to show that there is some other way, which is fairly possible. And therefore, we need not resort to bahula grahana.
बाहुलकत्वं तु अगतिकगतिः.
किमुक्तम्? आद्योच्चारणमिति. यद्यपि उपदिश्यते अनेन इति करणव्युत्पत्त्या शास्त्रम् उपदेशः इति भाष्यवृत्त्यादिषु व्याख्यातम्, तथापि तत् प्रौढिवादमात्रम्. किमर्थम्? करणे घञः दुर्लभत्वात्. दट् इस् हिस् पॉइंट. करणे घञ् प्रत्ययः न भवति ल्युटाबाधात्, न च घः असंज्ञात्वात्. प्रायेण संज्ञायामिति व्याख्यानस्य क्लिष्टत्वात्, नष्युपाधेरुपाधिर्भवति इत्यादिना भाष्यकृता अवहेलनाच्च. अत एव घापवादः हलश्च इति घञ् अपि इह न. बाहुलकत्वं तु बाहुलकं तु अगतिकगतिः. सो अतः किमुच्यते? सो देर् इस् वन् मोर् पार्ट्. सो फैनली हि सेस् भावे एव प्रत्ययः न्यायः. अतः भावे इत्यनेनैव घञ् प्रत्ययः उपदिश्यते इति उपदेशः, तदेव उपदेशक्रिया एव भावार्थे घञ्, तस्य च आद्योच्चारणम् इत्यर्थः. सो हि इस् ट्रैङ्ग् टु सपोर्ट् हिस् डिरिवेशन् आफ् भावे घञ् एण्ड् नाट् करणे घञ्. सो देर् इस् अ बिट् मोर् टु दिस् पार्ट् विच् विल् सी इन् द नेक्स्ट् क्लास्. एनि क्वश्चन्स्? So there is a lot about Upadesha Samhita in the Prautha Manorama. So he also goes on about the Dhatu Sutra and Tasya Khandana of Yasti. Punaha Pathamaha Avagamyate. Okay, first time it feels a bit circuitous. So don't worry, I mean, once you just go through this Sutra, Siddhanta Gaumudyam Etesham Sutranam Ke Arthaha Kimudaharanam Iti Pashyantu. Okay, so if you look at the Kridanta, that is the fourth part of the Siddhanta Kaumudi. Kridanta prakarane etani sutrani bhavanti. Padaruja ityarena arabhya. Ghai lyut gha. Punaha ghai. Etesham sutranam kaha artha kimudaharanam ityari pashyantu. So once you understand the sutra, you will also understand the badhya badhaka bhava. Okay, which is an apavada and which is a sarga. So once you understand that, we can appreciate the argument which is being made by Dikshitar. Stop here. ध्यायन् ध्यायम् परम् ब्रह्म स्मारम् स्मारम् गुरोर्गिरः सिद्धान्तकौमुदी व्याख्याम् कुर्मः प्रौढमनोरमाम्.